अच्छा म इन्द्रम् मतजस्वरभितः सध्रे चेर्विश्वा उजतेरनोषता वरिष्वजन्ते जनयो यथा पतिम् वर्यन्न शुन्ध्यम् मघवा नमोतजे नघा त्वद्रिगपवेति मे मनस्त्वे इत्कामम् बुरहोदशिश्रया राजे वदस्मनिषदोऽधिबर्हिष्यस्मिन् सुसोमे भवानमस्तुते विशो वृदिन्द्रो अमतेरुतक्षुधः स इत्राजो मघभावस्व ईषते तस्येति मे प्रभणे सप्तसिन्धभावजो वर्धन्ति वृषभस्य शुष्मिणाः वजो न वृक्षम् स पराशमासदन् सोमा स इन्द्रम् मन्दिरश्च भोषताः रैषामने एकम् शवसादविद्युदद्विदत्स्वा अरमनवे ज्योतिरार्यम् कृतन्नश्वघ्ने विजिनोदिदेवने सम्वर्गय्यन्मघभासोर्यञ्जत न तत्ते अन्यो अनुवीर्यम् शकन्न पुराणो मघवन्नोतनोतनः विषम् विषम् मघभा पर्यशा जतजनान्धेना अवचाकषत्पृषा यस्याः शक्रः सवने शरण्यति स देव्रैः सामैः सहते वृतञ्जतः आपो न सिन्धुमभयत्समक्षरन् सोमा स इन्द्रम् कुल्या इव ह्रदम् वर्धन्ति विप्रामहो अस्य साधने जवन्नभृष्टर्दिव्येन दानुना वृषान क्रुद्धः पर यत्र जस्वायो अर्यवत्नेरकृणोधिमा अवः ससन्वदे मघवा जीरदा नवे बिन्दज्यो जर्म नवे हविष्मदे उज्जाजताम्बरशर्ज्योतिषा सह भोजारतस्य सुदुघा पुराणवत् विरोचतामरुषो भानुनाशजस्वा अर्णशुक्रम् शशचेतसत्पतिः गोभिष्टरे मामतिन्दुरे बाल्यवे नक्षुधम् वरहोत विश्वा वयम् राजभिः प्रथमाधनान्यस्माकेन वृजनेनाजयेम बृहस्पतिर्नः परिपातु पश्चादतोत्तरस्मादधरादघायोः इन्द्रः पुरस्तादुतमध्यतो नः सखासखिभ्यो परिवः कृणोत